ओम नमो भगवते वासुदेवाय। अथाष्टादशोऽध्यायः। श्रीशुक उवाच, यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः, षडिमे नौ सस्यासन्निन्द्रियाणि वदेहिनः, राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित्, यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते, पितरिभ्रंसिते स्थानादिन्द्राण्या धर्षणाद्विजैः, प्रापिते जगरत्वं वै ययातिरभवन् नृपः। ततः सृष्ट्वा दिशद्दिक्षु भ्रातॄन् भ्राता यवीयसः, कृतदारोजुगो पूर्वीं काव्यस्य वृषपर्वणः। राजोवाच, ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः, राजन्यविप्रयो कस्मात् विवाह प्रतिलोमकः। श्रीशुक उवाच, एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका सखी सहस्रसंयुक्ता गुरुपुत्र्या च भामिनी, देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले, व्यचरत्कलगीताली नलिनी पुलिने बला, ताजलाशयमासाद्य कन्याः कमललोचनाः, तीरेऽन्यस्य दुकूलानि विजर्रुः सिञ्चतीर्मिथः, वीक्ष्य व्रजन्तम् गिरिशम् सह देव्या वृषस्थितम्, सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिता स्त्रियः, शर्मिष्ठा जानती वासो गुरुपुत्र्या समव्ययत्, स्वीयम् मत्वा प्रकुपिता देवयानीदमब्रवीत्, अहो निरीक्षतामस्या दास्याः कर्म य साम्प्रतम्, अस्मद्धार्यम् धृतवती सुनीव हविरध्वरे, यैरिदम् तपसा सृष्टम् मुखम् पुंसः परस्य ये, धार्यते यैरिह ज्योतिः शिवः पन्थाश्च दर्शितः, यान् वदन्त्युपतिष्ठन्ते लोकनाथा सुरेश्वराः, भगवानपि विश्वात्मा पावनः श्रीनिकेतनः, वयम् तत्रापि भृगवः शिष्योऽस्यान्नः पितासुरः, अस्मद्धार्यम् धृतवती शूद्रो वेदमिवासति, एवम् शपन्तीम् शर्मिष्ठा गुरुपुत्रीमभाषत, रुषा स्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा, आत्मवृत्तमविज्ञाय कथसे बहु भिक्षुकी, किम् न प्रतीक्षसे अस्माकम् गृहान् बलिभुजो यथा। एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुताम् सतीम् शर्मिष्ठा प्राक्षिपत्कूपे वास आदाय मन्युना, तस्याम् गतायाम् स्वगृहम् ययातिर्मृगयाम् चरन्, प्राप्तो यदृच्छया कूपे जलार्थी ताम् ददर्शः, दत्त्वा स्वमुत्तरम् वासस्तस्यै राजा विवाससे, गृहीत्वा पाणिना पाणि मुज्जहार दया परः, तम् वीरमाहौशनसी प्रेमनिर्भरया गिरा, राजन्स्त्वया गृहीतो मे पाणिः परपुरञ्जय, हस्तग्राहो परो माभूद् गृहीतायास्त्वया हि मे, एष ईशकृतो वीर सम्बन्धो नौनपौरुषः, यदिदम् कूपलग्नाया भवतो दर्शनम् मम, न ब्राह्मणो मे भविता हस्तग्राहो महाभुज, कतस्य बार्हस्पत्यस्य शापाद् यमशपम् पुरा, ययातिरनभिप्रेतम् दैवोपहृतमात्मनः, मनस्तु तद्गतम् बुद्ध्वा प्रतिजग्राह तद्वचः, गते राजनिसा वीरे तत्र स्म रुदती पितुः, न्यवेदयत्ततः सर्वमुक्तम् शर्मिष्ठया कृतम्। दुर्मना भगवान् काव्यः पौरोहित्यम् विगर्हयन् स्तुवन् वृत्तिम् च कापोतीम् दुहित्राशययौ पुरात्, वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् गुरुम् प्रसादयन् मूर्ध्ना पादयोः पतितः पथि। क्षणार्धमन्युर्भगवान् शिष्यम् व्याचष्ट भार्गवः, कामोऽस्याः क्रियताम् राजन् नैनाम् त्यक्तुमिहोत्सहे, तथेत्यवस्थिते प्राह देवयानी मनोगतम्, पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु, स्वानाम् तत्सङ्कटम् वीक्ष्य तदर्थस्य च गौरवम्, देवयानीम् पर्यचरत् स्त्रीसहस्रेण दासवत्, नाहुषाय सुताम् दत्त्वा सह शर्मिष्ठयोशना, तमाह राजन् शर्मिष्ठा माधास्तल्पेन कर्हिचित्, विलोक्यौशनसीम् राजन् शर्मिष्ठा स प्रजाम् क्वचित्, तमेव वव्रे रहसि सख्याः पतिमृतौ सती, राजपुत्र्यार्थितोपत्ये धर्मम् चावेक्ष्य धर्मवित्, स्मरन् शुक्रवचः काले दिष्टमेवाभ्यपद्यत, यदुम् चतुर्वसुम् चैव देवयानी व्यजायत, द्रुह्युम् चानुम् च पूरुम् च शर्मिष्ठा वार्षपर्वणि, गर्भसम्भवमासुर्या भर्तुर्विज्ञायमानिनी, देवयानी पितुर्गेहम् ययौ क्रोधविमूर्च्छिता। प्रियामनुगतः कामे वचोभिरुपमन्त्रयन् न प्रसादयितुं शेके पादसंवाहनादिभिः। शुक्रस्तमाः कुपितः स्त्रीकामानृतपूरुष त्वां जराविषतां मन्द विरूपकरणी नृणाम्। ययातिरुवाच अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरिस्मते व्यत्यस्यतां यथा कामं वयसा योऽभिधास्यति। इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत यदोतात प्रतीच्छे मां जरां देहि निजं वयः। मातामह कृतां वत्स न तृप्तो विषये स्वहं वयसा भवदीयेन रंस्ये कतिपयाः समाः। यदुरुवाच नोत्सहे जरसा स्थातु मन्तरा प्राप्तया तव अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः। तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत प्रत्याचक्षुरधर्मज्ञा यनित्ये नित्यबुद्धयः। अपृच्छत्तनयं पूर्वं वयसोऽनं गुणाधिकं न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि। पूरुरुवाच कोनु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम्। उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः अधमो श्रद्धया कुर्यादकर्तोच्चरितं पितुः। इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः। सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप। सप्तद्वीपपतिः सम्यक् पितृवत् पालयन् प्रजाः यथोपजोषं विषयान् जुजुषे व्याहतेन्द्रियः। देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः। अयजद्यज्ञपुरुषं क्रतुभिर्भूरि दक्षिणैः सर्वदेवमयं देवं सर्ववेदमयं हरिं। यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः नानेव भाति नाभाति स्वप्नमाया मनोरथः। तमेव हृदि विन्यस्य वासुदेवं गुहाशयं नारायणमणीयांसं निराशीरयजत्प्रभुम्। एवं वर्षसहस्राणि मनः षष्ठैर्मनः सुखं विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धेऽष्टादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।